ओम नमो भगवते वासुदेवाय। अथाष्टमोऽध्यायः। नारद उवाच, अथ दैत्यसुता सर्वे श्रुत्वा तदनुवर्णितम् जगृहुर्निरवध्यत्वान्नैव गुर्वनुशिक्षितम्। अथाचार्यसुतस्तेषाम् बुद्धिमेकान्तसंस्थिताम् आलक्ष्यभीतस्त्वरितो राज्ञा वेदयद्यथा। श्रुत्वा तदप्रियम् दैत्यो दुःसहम् तनयानयम् कोपावेशचलद्गात्रः पुत्रम् हन्तुम् मनोदधे। क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा। प्रश्रयावनतम् दान्तम् बद्धाञ्जलिमवस्थितम् सर्पपदाहत इव श्वसन् प्रकृतिदारुणः। हे दुर्विनीतमन्दात्मन्कुलभेदकराधम स्तब्धम् मच्छासनोद्धूतम् नेष्येत्वाद्ययमक्षयम्। क्रुद्धस्य यस्य कम्पन्ते त्रयो लोका सहेश्वराः तस्य मे भीतमन्मूढ शासनम् किम्बलोत्यगाः। प्रह्राद उवाच, न केवलम् मे भवतश्च राजन् स वै बलम् बलिनाम् चापरेषाम्। परे वरेमि स्थिरजङ्गमा ये ब्रह्मादयो येन वशम् प्रणीताः। स ईश्वरः काल उरुक्रमो सावोजः सत्त्वबलेन्द्रियात्मा। स एव विश्वम् परमस्वशक्तिभिः सृजत्यवत्यत्तिगुणत्रयेशः। जह्यासुरम् भावमिमम् त्वमात्मनः समम् मनोधत्स्वन सन्ति विद्विषः। ऋतेजितादात्मन उत्पथस्थितात् तद्धियनन्तस्य महत्समर्हणम्। दस्यून्पुरा षण्ण विजित्य लुम्पतो मन्यन्त एके स्वजितादिशो दश। जितात्मनोज्ञस्य समस्य देहिनाम् सातो स्वमोह प्रभवा कुतः परे। हिरण्यकशिपुरुवाच, व्यक्तम् त्वम् मर्तुकामोऽसि योतिमात्रम् विकत्थसे। मुमूर्षूणाम् हि मन्दात्मन्ननुस्युर्विप्लवा गिरः। यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः। क्वासौ यदि स सर्वत्र कस्मात् स्तम्भेन दृश्यते। सोऽहम् विकत्थमानस्य शिरः कायाद्धरामि ते। गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम्। एवम् दुरुक्तैर्मुहुरर्दयन् रुषा सुतम् महाभागवतम् महासुरः। खड्गम् प्रगृह्योत्पतितो वरासनास्तम्भम् तताडाति बलस्वमुष्टिना। तदैव तस्मिन्निनदोति भीषणो बभूव येनाण्डकटाहमस्फुटत्। यम् वै स्वधिष्ण्योपगतम् त्वजादय श्रुत्वा स्वधामाप्ययमङ्गमे निरे। स विक्रमन् पुत्रवधेत् सुरोजसा निशम्य निर्रादमपूर्वमद्भुतम्। अन्तःसभायाम् न ददर्श तत्पदम् वितत्र सुर्येन सुरारियूथपाः। सत्यम् विधातुम् निजभृत्यभाषितम् व्याप्तिम् च भूतेष्वखिलेषु चात्मनः। अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायाम् न मृगम् न मानुषम्। स सत्त्वमेनम् परितोऽपि पश्यन् स्तम्भस्य मध्यादनु निर्जिहानम्। नायम् मृगो नापि नरो विचित्र महो किमेतन्नृमृगेन्द्ररूपम्। मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलम् भयानकम्। प्रतत्तचामीकरचण्डलोचनम् स्फुरत् सटाकेसरचृम्भिताननम्। करालदंष्ट्रम् करवालचञ्चलक्षुरान्तजिह्वम् भृगुटीमुखोल्बणम्। स्तब्धोर्ध्वकर्णम् गिरिकन्दराद्भुत व्याप्तास्य नासम् हनुभेदभीषणम्। दिवि स्पृशत्कायमदीर्घपीवरग्रीवोरुवक्षस्थलमल्पमध्यमम्। चन्द्रांशुगौरैस्फुरितम् तनूरुहैर्विश्वग्भुजानीकशतम् नखायुधम्। दुरासदम् सर्वनिचेतरायुधप्रवेकविद्रावितदैत्यदानवम्। प्रायेण मेयम् हरिणोरुमायिना वद स्मृतोऽनेन समुद्यते न किम्। एवम् ब्रुवन्स्त्वभ्यपतद्गदायुधो न दण्डसिंहम् प्रति दैत्यकुञ्जरः। अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिंहौ जसिसोऽसुरस्तदा। न तद्विचित्रम् खलु सत्त्वधामनि स्वतेजसा यो नु पुरापि बत्तमः। ततोऽभिपद्याभ्यहनन्महासुरोरुसा नृसिंहम् गदयोरुवेगया। तम् विक्रमन्तम् सगदम् गदाधरो महोरगम् तार्क्ष्यसुतो यथा ग्रहीत्। स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः। असाध्वमन्यन्त हृतौ कसोमरा घनच्छदा भारत सर्वधिष्ण्यपाः। तम् मन्यमानो निजवीर्य शङ्कितम् यद्धस्तमुक्तो नृहरिम् महासुरः। पुनस्तमासज्जत खड्गचर्मणि प्रगृह्य वेगेन चितश्रमो मृधे। तम् श्येन वेगम् शतचन्द्रवर्त्मभिश्चरन्तमच्छिद्रमुपर्यधो हरिः। कृत्वाट्टहासम् खरमुत्स्वनोल्बणम् निमीलिताक्षम् जगृहे महाजवः। विश्वक्स्फुरन्तम् ग्रहणातुरम् हरिर्व्यालो यथा खुम् कुलिशाक्षतत्वचम्। द्वार्यूरापात्य ददार लीलया नखैर्यथा हिम् गरुडो महाविषम्। संभ्रम दुष्प्रेक्ष्य कराल लोचनो व्याप्तानन्तं विलिहन् स्वजिह्वया असृग्लवाक्ता अरुण केसरानो यथान्त्रमाली द्विपहत्यया हरिः नखाङ्कुरोत्पादितहृत् सरोरुहं विसृज्य तस्यानुचरानुदायुधान् अहं समन्तान् नखसहस्रपार्ष्णेभिर्दोर्दण्डयूथोऽनुपथान् सहस्रशः सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः अम्भोधयः स्वा सहता विचुक्षुभुर्निर्रादभीता दिग्भा विचुक्रुषुः द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पतक्ष्मा च पदाति पीडिता शैलासमुत्पेतुरमुस्य रंहसा तत्तेजसाखं ककुभो नरेजिरे ततसभायामुपविष्टमुत्तमे नृपासने संभृततेजसं विभुम् अलक्षितद्वैरथमत्यमर्षणम् प्रचण्डवक्त्रम् नवभाज कश्चन निशम्य लोकत्रयमस्तकज्वरम् तमादिदैत्यम् हरिणा हतम् विधे प्रहर्ष वेगोत्कलिताननामुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः तदा विमानावलिभिर्नभस्थलम् दिदृक्षताम् सङ्कुलमासनाकिनाम् सुरानकादुन्दुभयोऽथ जग्निरे गन्धर्वमुख्यानन्दतृजगुः स्त्रियः तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः ऋषयः पितरः सिद्धा विद्याधरमहोरगाः मनवप्रजानाम् पतयो गन्धर्वाप्सरचारणाः यक्षाः किम् पुरुषास्तात वेतालाः सिद्धकिन्नराः ते विष्णुपार्षदा सर्वे सुनन्दकुमुदादयः मूर्ध्निबद्धाञ्जलिपुटा आसीनम् तीव्रतेजसम् ईदिरे नरशार्दूलम् नातिदूरचराः पृथक् ब्रह्मोवाच नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया सन्दधते व्ययात्मने श्रीरुद्र उवाच कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः तत्सुतम् पाह्युपसृतम् भक्तम् ते भक्तवत्सल इन्द्र उवाच प्रत्यानीताः परमभवता त्रायता नः स्वभागा दैत्याक्रान्तम् हृदयकमलम् त्वद्गृहम् प्रत्यबोधि कालग्रस्तम् कियदिदमहो नाथ शुश्रूषताम् ते मुक्तिस्तेषाम् नहि बहुमता नारसिंहापरैः किम् ऋषय ऊचुः त्वम् नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतम् ससर्ज तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीत वपुषा पुनरन्वमं स्थाः पितर ऊचुः श्राद्धानि नोति बुभुजे प्रसभम् तनूजैर्दत्तानि तीर्थसमयेऽप्यपि बत्तिलाम्बु तस्योदरान्नखविदीर्णवपाद्य आर्च्छत् तस्मै नमो नृहरयेऽखिलधर्मगोत्रे सिद्धा ऊचुः यो नो गतिम् योगसिद्धामसाधुरहारशीत् योगतपोबलेन नानादर्पम् तम् नखैर्निर्ददार तस्मै तुभ्यम् प्रणता स्मो नृसिंह विद्याधरा ऊचुः विद्याम् पृथग्धारणयानुराद्धाम् न्यषेधदज्ञो बलवीर्यदृप्तः स येन सङ्ख्ये पशुबद्धतस्तम् नाया नृसिंहम् प्रणता स्म नित्यम् नागा ऊचुः येन पापेन रत्नानि श्रीरत्नानि हृतानि नः तद्वक्षः पाटनेनासाम् दत्तानन्दनमोऽस्तु ते मनव ऊचुः मनवो वयम् तव निदेशकारिणो दितिजेन देव परिभूतसेतवः भवता खलः सौपसंवृतप्रभो करवामते किमनुषाधिकिङ्करान् प्रजापतय ऊचुः प्रदेशा वयम् ते परेशापि सृष्टा न येन प्रजा वै सृजामो निषिद्धाः स एष त्वया भिन्नवक्षानुषेते जगन्मङ्गलम् सत्त्वमूर्तेऽवतारः गन्धर्वा ऊचुः वयम् विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः स एष नीतो भवता दशामि माम् किमुत्पथस्थः कुशलाय कल्पते चारणा ऊचुः हरे तवाङ्घ्रिपङ्कजम् भवापवर्गमाश्रिताः यदेष साधुरिच्छयस्त्वया सुरः समापितः यक्षा ऊचुः वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् स तु जनपरितापम् तत्कृतम् जानता ते नरहर उपनीतः पञ्चताम् पञ्चविंश किम् पुरुषा ऊचुः वयम् किम् पुरुषास्त्वम् तु महापुरुष ईश्वरः अयम् कुपुरुषो नष्टोऽधिकृतः साधुभिर्यदा वैतालिका ऊचुः सभासु सत्रे सुतवामलं यशो गीत्वा सपर्यां महतीं लभामहे। यस्तां जनैषीत् भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथामयः। किन्नरा ऊचुः वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः। भवता हरे सवृजिनोऽवसादितो नरसिंहनाथ विभवाय नो भव। विष्णुपार्षदा ऊचुः अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म। सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवधे नृसिंहस्तवो नामाष्टमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।